एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अस्यैव मार्गशीर्षमासस्य चतुर्थे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः प्रदेशसभानाम् च सदस्यानाम् समानुपातिक प्रणाल्याः पक्षस्य निर्वाचनस्य मतगणना समाप्तेति निर्वाचनायोगो ज्ञापयति। निर्वाचनाय समग्रतः 1,79,88,000 70,500 च मतदातारः आसन्। येषु प्रतिशतम् 61 अर्थात् 1,09,73,000 27 मतानि व्यक्तानीति समानुपातिक निर्वाचन प्रणाल्याः मुख्य निर्वाचनाधिकृतः गोकर्णमणि दुवाडी अवोचत। मतगणनायाः विवरणस्य अनुसारेण नेकपा एमाले दलम् अग्रस्थाने, नेपाली कांग्रेस दलम् च द्वितीय स्थाने वर्तेते। एमाले दलेन 28,54,000 मतानि प्राप्तानि सन्ति। द्वितीय स्थानस्थम् नेपाली कांग्रेस दलम् 27,55,250 च मतानि लब्धवत् वर्तते। मतगणनायाः विवरणस्य अनुसारेण नेकपा माओवादी केन्द्रेण 11,75,000 84,67 च, राष्ट्रिय स्वतन्त्र दलेन 11,30,34,77 च, राष्ट्रिय प्रजातन्त्र दलेन 5,88,49,00 च, जनता समाजवादी दलेन 4,21,00 3,17,00 जनमत दलेन च 3,94,55,67 मतानि प्राप्तानि सन्ति। एवमेव नेकपा एकीकृत समाजवादी दलेन 2,98,91,73 नागरिकोन्मुक्ति दलेन 2,170,22,77 लोकतान्त्रिक समाजवादी दलेन 67,67,73 नेपाल मजदूर किसान दलेन च 75,68,67 मतानि अधिगतानि वर्तन्ते। समानुपातिक पक्षस्य प्रदेशगत विवरणस्य अनुसारेण प्रथम प्रदेशे बागमती, गण्डकी, लुम्बिनी, कर्णाली, सुदूरपश्चिम प्रदेशेषु च, एमाले दलम् मधेस प्रदेशे, कांग्रेस दलम् च अग्रस्थाने वर्तेते। मन्त्री परिषदा ह्यस्तनोपवेशे वर्तमान मौद्रिक नीतेः कोषागारैः निर्धारितस्य वृद्धिधनस्य कारणेन उद्योगी व्यवसायिभ्य उद्योगान् सञ्चालयितुम् कोषागाराणाम् प्रदेयमूलधनांशम् वृद्धिधनम् च अर्पयितुम् च समस्योद्भूतास्थिति कारणेन तत्कालम् समस्याया समाधानस्य च विषयेषु मन्त्रिभिः धारणाः व्यक्ताः सन्ति। उपवेशे गृहमन्त्री बालकृष्ण खाँड, अर्थमन्त्री जनार्दन शर्मा, उद्योग वाणिज्यापूर्ति मन्त्री दिलेन्द्र प्रसाद बडुचा वर्तमान मौद्रिक नीत्या कोषागारैः निर्धारितेन वृद्धिधनेन च अर्थतन्त्रे गभीर समस्या सम्भवतीति हेतोः सर्वकारेण विषयेऽस्मिन् हस्तक्षेपो विधातव्य इति धारणाम् व्यक्तवन्तः। गृहमन्त्री खाँड विषयोऽयम् असमाहितः सन् उद्योग व्यवसाये अर्थतन्त्रे च गभीर प्रभावः भविष्यतीति धारणा व्यक्त अज्ञापयत। उपवेशे मन्त्रिणाम् धारणायाः उपस्थापनस्य पश्चात् प्रधानमन्त्री शेरबहादुर देउवा अगदत् उद्योग व्यवसायस्य सञ्चालनाय उपयुक्त वातावरण निर्माणस्य, उद्योग व्यवसायाय सुरक्षा प्रदानस्य च दायित्वम् सर्वकारस्य वर्तते। वर्तमान मौद्रिक नीत्या अधिक वृद्धिधनस्य च कारणेन राष्ट्रस्य अर्थतन्त्रे राजस्वे च गभीरः प्रभावः सम्भवतीति विषयः आत्मना ज्ञातोऽस्ति। सर्वैः पक्षैः संवादानन्तरम् समस्यायाः समाधानम् करिष्यते इति प्रधानमन्त्रिणा देवाभिधेन उपवेशे उक्तमिति गृहमन्त्री खाँड ज्ञापितवान्। प्रधानमन्त्रिणे शेरबहादुर देउवाभिधेयाय काष्ठमण्डपस्य पेयजल समस्यायाः दीर्घकालिक समाधानाय ध्यानाकर्षण पत्रम् अर्पितमस्ति। काष्ठमण्डपस्य जनप्रतिनिधीनाम् पक्षतः सम्प्रत्येव प्रतिनिधिसभायाः सदस्यपदे निर्वाचितस्य नेपाली कांग्रेस दलस्य नेतुः प्रकाशमान सिंहस्य नेतृत्वस्य प्रतिनिधिमण्डलम् ह्यो ध्यानाकर्षण पत्रमिदम् अर्पयत्। प्रतिनिधिमण्डलम् काष्ठमण्डपे पेयजल समस्यायाः समाधानाय मेलञ्ची पेयजलायोजनायाः दीर्घकालिक रूपेण अग्रे वर्धापन प्रवृत्तिः याचनाः प्रास्तौत। याचनानां सम्बन्धे प्रधानमन्त्रिणा देवाभिधेन स्वस्य पक्षतः पूर्ण सहयोगस्य प्रतिबद्धताम् अभिव्यज्य एतत् सम्बन्धे सर्वकारेण तत्कालम् आवश्यक निर्णय विधास्यते इति ज्ञापितम् आसीत्। नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा कथयति राजनीतिक रूपान्तरणाय तपरम देशस्य नेतृत्वम युवभिः कर्तव्यम्। झापा जनपदस्य धुलाबारी स्थाने ह्य आयोजिते कार्यक्रमे झापा जनपदस्य प्रथम निर्वाचन क्षेत्रात् प्रतिनिधि सभाया सदस्य महामन्त्री च शर्मा सहज रूपेण नूतन सन्तत्यै नेतृत्वम हस्तान्तरणाय परिपक्व रूपेण आत्मना अग्रे वर्ध्यते इति प्रतिबद्धताम् व्यक्तवान्। महामन्त्री शर्मा आत्मना कस्मिंचित् पदे स्थीयते नवेति विषय महत्वपूर्णो नास्ति, सम्प्रति कस्मिंचित् पदे आत्मना सत्वम् प्रस्तुतम् नास्तीति च स्पष्टीकृतवान्। राजनीतिम् परिवर्त्य वर्तमान व्यवस्थायम् रूपान्तरणम् विधेयम्, राष्ट्रियता सुदृढीकर्तव्या चेत्यत्र बलम् प्रददत् महामन्त्री शर्मा। राजनीतिकम् रूपान्तरणम् सिंहप्रासादात् प्रारब्धव्यम्, क्रमशः तस्य प्रभाव सर्वत्र भविष्यतीति च अवोचत्। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला गठबन्धनस्य नेतृत्वे आगामी सर्वकारः संघटयिष्यते इति विश्वासं व्यनक्ति। नेपाली कांग्रेस दलस्य विराटनगर महानगर समित्या ह्यतत्र आयोजिते कार्यक्रमे नेपाली कांग्रेस दलस्य नेत्रा गुरूराज घिमिरे विधेयन लिखितम् बाटो विरायको राजनीति इति शीर्षकीयम् पुस्तकम् विमुञ्चन असौ अवोचत आगामी सर्वकारेण जनतया अपेक्षितम् सुशासनम् भ्रष्टाचारस्य अन्त विकास समृद्ध्यो पूरणम् चेति समाह्वयाः सन्ति। नेता डाक्टर कोइराला निर्वाचने कांग्रेस दलेन प्राप्तानां स्थानानां संख्यायां वर्धितायां सत्यमपि प्रतिशतं सप्तभिर्मतानां न्यूनीभवने गभीरेण भाव्यमिति चर्चयन् एतत्सम्बन्धे स्वतन्त्रानुसन्धान समिति संघटयितव्येति अवदत। नेपाली कांग्रेस दलस्य महामन्त्री गगन थापा अभासत कांग्रेस दलस्य नेतृत्वे संघटयिष्यमाणेन आगामी सर्वकारेण उचितरीत्या राष्ट्रं संचाल्य हापितानि लक्ष्यशो मतानि प्राप्तव्यानि। नेकपा एकीकृत समाजवादी दलस्य महासचिव डाक्टर बेदुराम भूषाल भासते वाम लोकतान्त्रिक गठबन्धनस्य नेतृत्वे नूतन सर्वकार संघटयिष्यते। दल केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे महासचिव भूषाल संविधानस्य रक्षायै निर्मितस्य गठबन्धनस्य संयुक्त प्रत्याशिना सर्वकारस्य नेतृत्वं विधाय देशे स्थायित्वं संस्थाप्यते इत्यवोचत। असौ आगामिना नूतन सर्वकारेण राष्ट्रिय विकासेन सह जनताया सामाजिक रूपान्तरणाय योजनाबद्ध रूपेण सशक्ताः कार्यक्रमाः आनेष्यन्ते इति विश्वासं व्यक्तवान्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री जीवन राम श्रेष्ठ भासते नेपाल संवत्सराय राष्ट्रिय रूपेण मान्यता प्रदानम् आवश्यकमस्ति। नेपाल प्रज्ञा प्रतिष्ठानेन नेपाल संवत्स हुनुहुँद राष्ट्रिय समारोह समित्या सहकार्येण ह्य काष्ठमण्डपे आयोजितायाम् नेपाल संवत्सर हुँद विषयिण्याम् गोष्ठ्याम् मन्त्री श्रेष्ठ अवोचत नेपाल संवत्सराय राष्ट्रिय रूपेण मान्यताम् प्रदातुम् पर्यटन मन्त्रालयेन विधेयानि कार्याणि अग्रे वर्धयितुम् मन्त्रालय तत्परो वर्तते। प्रज्ञा प्रतिष्ठानस्य निमित्त कुलपति डाक्टर जगमान गुरूङ अगदत जनतया देशस्य नाम्नि प्रवर्धितः नेपाल संवत्सरः राष्ट्रिय गौरवस्य विषयो वर्तते। लुम्बिनी प्रदेशस्य स्थायी राजधान्यम् दाङ जनपदस्य भालवाङ स्थाने मुख्यमन्त्रिणः कार्यालय स्थानान्तरितो वर्तते। एतत्पूर्वम् अस्थायी राजधानीतः बुटवल स्थानादेव कार्यम् सञ्चाल्यमानम् आसीत्। मुख्यमन्त्रिणः संचार संयोजकस्य मानस सिंहविक इत्यस्य अनुसारेण रविवासरात् मुख्यमन्त्री कार्यालयेन देवखुरी स्थानादेव सेवा प्रवाह विहितोऽस्ति।